सम्यक् दृष्टय एव साहसमिदं कर्तुं क्षमन्ते परं यद्वज्रेऽपि पतत्यमि भयचलत् त्रैलोक्यमोक्ताध्वनि सर्वामेव निसर्गनिर्भयतया शङ्कां विहाय स्वयं जानन्तः स्वमवध्य बोधवपुषं बोधाच्यवन्ते नहि।